सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं श्रूयते, पश्चात् पाठः आरभ्यते। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्याभोगकरी यशःसुखकरी विद्या गुरूणां गुरुः विद्या बंधुजनो विदेश गमने विद्या परा देवता विद्या राज सुपूज्यते न तु धनम विद्या विहीनः पशुः। अस्तु, चतुर्थी विभक्तेः चिन्तनं क्रियमाणमस्ति। उदाहरणार्थं दाता भोक्त्रे भोजनं ददाति, प्रकृतिः कर्त्रे प्रेरणां ददाति, शिक्षकः अध्येत्रे पुस्तकानि ददाति, रथिकः सारधये प्रग्रहं ददाति, गृहस्थः अतिधये आतिथ्यं ददाति इत्यादिषु वाक्येषु दानक्रिया अस्ति। अस्यां दानक्रियायां दानस्य कर्मणा यम् अभिप्रैति सः सम्प्रदानसंज्ञकः भवति। एतेषु वाक्येषु यः ददाति तस्य प्रथमा विभक्तिः, यं ददाति तस्य द्वितीया विभक्तिः। इत्युक्ते यत् दत्तमस्ति तत् कर्मपदं भवति, यस्मै ददाति तस्य चतुर्थी विभक्तिः भवति। गृहस्थः अतिधये आतिथ्यं ददाति इत्यस्मिन् वाक्ये गृहस्थः कर्ता, आतिथ्यम् इति कर्मपदमस्ति, कर्मणा अतिथिम् अभिप्रैति इत्यतः अतिथि इति शब्दस्य सम्प्रदानसंज्ञा भवति। चतुर्थी सम्प्रदाने इति पाणिनिसूत्रेण तस्य चतुर्थी विभक्तिः भवति, अतः अतिधये इति रूपं कर्मणा यम् अभिप्रैति स सम्प्रदानम्, कर्मणा यम् अभिप्रैति स सम्प्रदानम् इति सम्प्रदानसंज्ञासूत्रमस्ति। अपि च चतुर्थी सम्प्रदाने इति चतुर्थी विभक्तेः विधायकसूत्रमस्ति, एतत् पूर्वं पठितमेव। अत्र अतिधये इत्यस्य कारकचतुर्थी विभक्तिः अस्ति। इत्युक्ते चतुर्थी विभक्तिः द्विविधा वर्तते, कारकचतुर्थी विभक्तिः, उपपदचतुर्थी विभक्तिः। अस्माकं पुस्तके उपपदचतुर्थी विभक्तेः प्रसङ्गे अपि दत्तमस्ति। एतं विषयम् अवलम्ब्य कांश्चन अभ्यासान् वयं कृतवन्तः, अद्य अन्यान् अभ्यासान् अवलोकयाम। अतः त्रिपञ्चाशत्युत्तर एकशतं पुटं पश्यन्तु, त्रिपञ्चाशत्यधिक एकशतं पृष्ठम् इत्युक्ते पेज् 153 पश्यन्तु। तत्र पञ्चमः अभ्यासः दीयते, अभ्यासं कर्तुं सूचना अपि दीयते, सूचनां पठित्वा वाक्यानि अवलोकयेम। भूमा भगिनी सूचनां पठतु, पञ्चमः अभ्यासः अस्ति।
पञ्चमः सर्वनामशब्दाना चतुर्थी विभक्तिरूपेण यतोदाहरणं रिक्तस्थानानि पूरयत। सर्वनामशब्दानां समस्तपदमस्ति, शब्दानां षष्ठीविभक्ति बहुवचनमस्ति चतुर्थीविभक्तिरूपेण। उदाहरणं सैनिकाः खिद्यन्ते।
अत्र इतोपि किं वक्तव्यमस्ति? सर्वनामशब्दः इति समस्तपदमस्ति, सर्वादीनां सर्वनामानि इति एकं सूत्रमस्ति, सर्वादीनां सर्वनामानि। सर्वादिगणः नाम्ना एकः गणः अस्ति, व्याकरणे गणपाठाः सन्ति, सर्वादिगणः नाम्ना एकः गणः अस्ति, तस्मिन् गणे सर्वशब्दः अन्यतमः अस्ति। इत्युक्ते तस्मिन् गणे बहवः शब्दाः सन्ति, तेषु सर्व इति पदमपि अस्ति। अपि च सर्वशब्दः त्रिषु लिङ्गेषु सम्भवति, त्रिषु लिङ्गेषु रूपाणि वदतु।
सर्वः सर्वौ सर्वाः,
सर्वः सर्वौ सर्वे,
सर्वे
पुंलिङ्गे एवं भवन्ति,
पुल्लिङ्गं पुल्लिङ्गे सर्वा सर्वा सर्वे सर्वाः,
स्त्रीलिङ्गे एवं भवन्ति, नपुंसकलिङ्गे
सर्वं सर्वे सर्वं सर्वे सर्वाणि।
उत्तमं, सर्वं सर्वे सर्वाणि। पुंलिङ्गे प्रातिपदिकमस्ति सर्व, नपुंसकलिङ्गे प्रातिपदिकमस्ति सर्व, किन्तु स्त्रीलिङ्गे प्रातिपदिकमेव सर्वा इति, इत्युक्ते स्त्रीलिङ्गे प्रातिपदिकं सर्वा एव भवति। एतावत्पर्यन्तम् अस्माकं विषयः चतुर्थी विभक्तिः, अतः सर्वशब्दस्य रूपाणि चतुर्थीविभक्त्यां कथं सम्भवन्ति? पुंलिङ्गे वदतु.
सर्वं सर्वे सर्व
चतुर्थी चतुर्थीविभक्त्यां
चतुर्थी तस्मै
तत् शब्दस्य तस्मै भवति. सूर्यकुमारी भगिनी भवती वक्तुमिच्छति वा चतुर्थीविभक्त्यां?
सर्वस्मै सर्वाभ्यां सर्वेभ्यः.
सर्वस्मै इति उक्तवती खलु, तत्र किं कार्यमस्ति जानाति वा? सर्व इति प्रातिपदिकमस्ति, ञे इति प्रत्ययः अस्ति, चतुर्थी विभक्ति एकवचनप्रत्ययः ञे प्रत्ययः खलु. सर्वप्रातिपदिकमस्ति, ञे प्रत्ययः अस्ति, तत्र किं चिन्तनमस्ति?
वृद्धि भवत् सर्वस्मै सर्वयोगः ये.
रमेश महोदय भवान् वक्तुमिच्छति वा? तत्र एकं नूतनं सूत्रम् आयाति. नूतनं सूत्रम् आयाति तत्र सर्वस्मै तस्मै एतस्मै इति रूपं साधयितुं तत्र नूतनं सूत्रम् अपेक्षितम्. रमेश महोदय वक्तुमिच्छति वा?
सूत्रं स्म इति आगमः भवति वा? स्म इति सर्वनां स्म वा?
सर्वनाम्नः स्मै इति सूत्रमस्ति. सर्वनाम्नः स्मै इति सूत्रेण ञे प्रत्ययस्य स्थाने स्मै आदेशः भवति. तेन वर्णमेलनेन सर्वयोगः स्मै सर्वस्मै एवं रूपं भवति. किन्तु तस्मै इत्यत्र अन्यानि सूत्राणि अपेक्षितानि. त्यदादीनामः इति एकं सूत्रमस्ति. त्यदादीनामः तत् सूत्रम् आवश्यकमस्ति तस्मै इति रूपसिद्ध्यर्थम्. अपि च पुंलिङ्गरूपाणि कथं भवन्ति? सर्वस्मै सर्वाभ्यां सर्वेभ्यः एवं भवन्ति. सूर्यकुमारी भगिनी वदतु, सर्वाभ्याम् इति किमर्थं? तत्र दीर्घादेशः किमर्थं भवति? सर्व इति प्रातिपदिकं, सर्वाभ्याम् इत्यत्र दीर्घादेशः.
सर्व प्रातिपदिकमस्ति. आभ्याम्
भ्याम् इति सुप्रत्ययः खलु, द्विवचनप्रत्ययः.
भगिनि तत्र आगमः भवति वा?
वयं पठितवन्तः व्याकरणवर्गे किं तत्र सुपि च इति सूत्रमस्ति. सुपि च सूत्रेण
सुपि च न स्मरामि भगिनि. सुपि च सूत्रेण
अत्र रमेश महोदय भवान् वदतु.
अदन्त अङ्गस्य दीर्घः भवति.
अदन्तङ्गस्य दीर्घादेशः भवति सुपि च सूत्रेण. ययादिसुप्रत्यये परे अत्र भकारः यञ् प्रत्याहारस्थवर्णः. भकारादिप्रत्ययः अस्ति, भकारः यञ् प्रत्याहारे अस्ति, अतः अदन्ताङ्गस्य दीर्घादेशः भवति यञ्यादिसुप्रत्यये परे इति सुपि च सूत्रेण उक्तमस्ति. अतः सर्व इति अङ्गस्य दीर्घादेशः भवति सुपि च सूत्रेण. अतः सर्वाभ्याम् इति रूपं सिद्ध्यति. सर्वेभ्यः इति रूपं कथं साधनीयं? तत्रापि प्रातिपदिकं सर्व अस्ति, भ्यस् इति प्रत्ययः अस्ति. किमर्थम् एकारः आगतः?
बहुवचनं चल्येत्. बहुवचनं चल्येत् इति एकं सूत्रम् अस्ति. अदन्त अङ्गस्य एकारादेशः भवति
बहुवचने चल्येत्.
बहुवचने जलादि बहुवचनार्थकप्रत्ययः सुप्रत्ययः भवेत्.
किं वक्तव्यं? बहुवचनार्थकप्रत्ययः सुप्रत्ययः जलादिप्रत्ययः.
जलादिप्रत्ययः भवेत् तादृशप्रत्ययस्य अदन्त अङ्गस्य एकारादेशः भवति. तर्हि अकारस्य स्थाने एकारादेशः.
उत्तमम्. अत्रापि अदन्तम् अङ्गं स्यात्. अदन्तम् अङ्गमस्ति चेदेव अदन्त अङ्गस्य अन्ते स्थितस्य अकारस्य एकारादेशः भवति बहुवचने झल्येत् इति सूत्रेण. बहुवचने झल्येत् सूत्रं किं वदति? बहुवचनार्थकप्रत्ययः स्यात्, सुप्रत्ययः स्यात्, झलादिप्रत्ययः स्यात्. अत्र भ्यस् प्रत्ययः बहुवचनार्थकप्रत्ययः झलादिप्रत्ययः भकारः झल् प्रत्याहारे अपि अस्ति न केवलं यञ् प्रत्याहारे झल् प्रत्याहारे अपि अस्ति अतः अत्र सुपि च सूत्रं प्रबाध्य विप्रतिषेधे परं कार्यं सूत्रेण परत्वबलेन बहुवचने झल्यत् कार्यं भवति अतः अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य स्थाने एकारादेशः अतः एव सर्वेभ्यः इति रूपं सिद्ध्यति अत्र अदन्तप्रातिपदिकम् अस्ति सर्व इति अदन्तप्रातिपदिकं किन्तु स्त्रीलिङ्गरूपं किम् अस्ति सर्वाभ्यः इति अस्ति तत्र एकारादेशः न भवति किमर्थम्
आकारान्तप्रातिपदिकम् अस्ति
अदन्तप्रातिपदिकं नास्ति तत्र प्रातिपदिकस्य अन्ते दीर्घ आकारः अस्ति इति कारणतः तत्र बहुवचने झल्यत् सूत्रस्य प्रसक्तिः नास्ति खलु स्त्रीलिङ्गे सर्वस्यै सर्वाभ्यां सर्वाभ्यः एवं रूपाणि भवन्ति किन्तु नपुंसकलिङ्गे पुंलिङ्गवत् रूपाणि भवन्ति अत्र चतुर्थी विभक्तिः इति उक्तम् अस्ति रमेश महोदय समस्तपदमस्ति अतः विग्रहवाक्यं वदतु
कस्य विग्रहः वाक्यं महोदय
चतुर्थी विभक्तिः
चतुर्थी च सा विभक्ति
उत्तमम् विशेषणपूर्वपदकर्मधारे समासः अस्ति प्रथमा विभक्तिः इति कथनेन प्रथमा च सा विभक्तिः च एवं विग्रहवाक्यं वक्तव्यं भवति विशेषणपूर्वपदकर्मधारे समासः अस्ति रूपेण इत्यत्र अणत्वम् अस्ति भूमा भगिनी वदतु
कारणात् णत्वं भवति
अत्र अट्कुप् वाङ्नुं व्यवायेपि सूत्रेण णत्वं भवति न तु रसाभ्यां नोणः इत्युक्ते अत्र रेफस्य साक्षात् अनन्तरं दन्त्यनकारः नास्ति रेफस्य साक्षात् अनन्तरं दन्त्यनकारः अस्ति चेत् रसाभ्यां नोणः समानपदे इति सूत्रेण अणत्वं भवति पूर्ण गीर्ण कीर्ण इत्यादिषु रसाभ्यां नोणः समानपदे सूत्रेण णत्वकार्यं भवति यथा योगः उदाहरणं यथोदाहरणं तत्र गुणसन्धिकार्यमस्ति रमेश महोदय भवान् वदतु रिक्तस्थानानि इत्यत्र रिक्तम् इति कीदृशं पदम्
शान्तपदमस्ति
विग्रहवाक्यं वदतु रिक्तस्थानानि
रिक्तानि च स्थानानि च परन्तु रिक्तानि च ते न तानि एतानि स्थानानि च
रिक्तानि च तानि स्थानानि च एवं वक्तव्यमस्ति किन्तु तत्र भ्रमः मास्तु द्वन्द्वसमासस्य प्रसङ्गे अपि चकारप्रयोगः भवति रामः च कृष्णः च एवं विग्रहवाक्यं वदामः किन्तु तद्भिन्नम् अत्र भिन्नम् अस्ति विशेषणपूर्वपदकर्मधारे प्रसङ्गे विग्रहवाक्यम् एवं रीत्यापि वक्तुं शक्नुमः रिक्तानि च एतानि स्थानानि च एवमपि भवति नो चेत् रिक्तानि स्थानानि सरलरीत्या वक्तुम् इच्छामश्चेत् रिक्तानि स्थानानि रिक्तम् इति क्तान्तरूपम् अस्ति रिच् इति धातुः अस्ति रुधादिगणे अस्ति रिच् धातोः परं क्ता इति प्रत्ययः अस्ति तेन रिक्त इति रूपं भवति तत्र चोः कुः इति सूत्रेण चकारस्य स्थाने ककारादेशः भवति इत्युक्ते कुत्वं भवति कुत्वं भूत्वा रिक्त इति प्रातिपदिकं सिद्ध्यति तत् प्रातिपदिकं स्वीकृत्य सप्तसु विभक्तिषु त्रिषु लिङ्गेषु सर्वाणि रूपाणि कृदन्तरूपाणि क्तान्तरूपाणि साधयितुं शक्नुमः स्थानमिति कीदृशं पदं सूर्यकुमारी भगिनी वदतु
स्थायोगः लिट् स्थायोगः युवरनाकौ इत्यनेन अन्नायाति स्थान भवति स्थान नपुंसकलिङ्गे अस्ति स्थानं भवति
ल्युच्च इति सूत्रेण ल्युडन्तपदानि नपुंसकलिङ्गपदानि एव भवन्ति घञ्यन्तपदानि पुंलिङ्गपदानि एव भवन्ति क्तिन् प्रत्ययान्तपदानि स्त्रीलिङ्गपदानि एव भवन्ति खलु तदर्थं सूत्राणि अपि सन्ति. स्थानम् इति स्थाधातोः रूपम् अस्ति. स्थाधातोः लटिरूपं किमस्ति?
तिष्ठति.
तिष्ठति अस्ति. किमर्थं तदा?
धात्वादेशः भवति.
तिष्ठ आदेशः भवति स्थास्थाने. पाघ्राध्मा इति एकं दीर्घं सूत्रमस्ति. तेन सूत्रेण स्थास्थाने तिष्ठ आदेशः भवति केवलं चतुर्षु लकारेषु एव. इत्युक्ते सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु एव तिष्ठ आदेशः भवति. इत्यतः तिष्ठति, तिष्ठतु, अतिष्ठत्, तिष्ठेत् एवं रूपाणि भवन्ति. किन्तु अन्येषु लकारेषु न भवति. इत्युक्ते शितिपरे एव तत् सूत्रं कार्यं करोति. शित् इत्युक्ते सार्वधातुकलकारेषु एव एतत् कार्यं भवति. आर्धधातुकलकारेषु न भवति. स्थाधातोः लृट् रूपं किमस्ति? स्थास्यति. उत्तमं. लृट् लकारः आर्धधातुकलकारः खलु? तिष्ठ आदेशः चतुर्षु लकारेषु एव भवति. लृट् लकारे तादृशं कार्यं न भवति. अतः स्थायोगः स्यायोगः ति स्थास्यति. तावदेव. पूरयत इति पदं दत्तमस्ति. सूर्यकुमारी भगिनी भवती वदतु.
पूरयत मध्यमपुरुष बहु लोट् लकार बहुवचनम् अस्ति. पूरय योगः त पूरयत.
किमर्थं पूरय योगः त इति उक्तवती? तत्र त इति कीदृशप्रत्ययः? किमर्थं त आगतम्?
सिद्धप्रत्ययः, लोट्लकारसिद्धप्रत्ययः. तान्तं तामस्
तस्थस्तमिपां तान्तं तामः इति सूत्रेण लोटो लङ्वत् इति सूत्रेण लोट्लकारप्रत्ययाः लङ्वत् प्रवर्तन्ते. तस्थस्तमिपां तान्तं तामः इति सूत्रेण था प्रत्ययस्य स्थाने ता आयाति. अतः लोट्लकारे मध्यमपुरुष बहुवचनप्रत्ययः ता अस्ति. सिद्धप्रत्ययः त. मूलप्रत्ययः भिन्नः, सिद्धप्रत्ययः भिन्नः. अत्र पूरयत इति रूपं दत्तमस्ति. नवरूपाणि वक्तुमिच्छति वा?
आ भगिनि. पूरयतु, पूरयतात्, पूरयतां, पूरयन्तु, पूरय, पूरय, पूरय थां, पूरयत.
मध्यमपुरुषं
क्षम्यतां, पूरयतं, पूरयत, पूरयाणि, पूरयाव, पूरयाम.
उत्तमपुरुष एकवचनरूपं पुनः वदतु.
पूरयाणि, पूरयाणि.
किमर्थं पूरयाणि?
तत्र रेप अस्ति, रकार रा अस्ति. अट्कुपुवाङ्नं एपि सूत्रेण या मध्ये ये वर्णाः सन्ति बाधिकं नास्ति. यक् या वा आ अस्ति. आ या आ अस्ति.
रेफोत्तरवर्ती अकारः, तस्मात् परं यकारः, पश्चात् दीर्घ आकारः. एते त्रयः वर्णाः
अट् वर्णे अस्ति. अट् प्रत्याहारे अस्ति.
अट् प्रत्याहारे सन्ति. उत्तमं. धन्यवादः भगिनि, बहु सम्यक्. पूरयाणि इति रूपं वक्तव्यमस्ति तत्र. पूरयतु, पूरयतां, पूरयन्तु, पूरय, पूरय मम कामम् इति कीर्तनमस्ति. सदाशिवब्रह्मेन्द्रकीर्तनम् अस्ति. पूरय, पूरयतं, पूरयत, पूरयाणि, पूरयाव, पूरयाम एवं रूपाणि भवन्ति. भगिनी, आप्यायने इत्यस्मिन् अर्थे पूरी इति धातुः दिवादिगणे अस्ति, चुरादिगणे अस्ति. पूरी इति कथेन तत्र दीर्घ ईकारः अनुनासिकः अस्ति, तदर्थं तस्य लोपः भवति. लौकिकधातुः पूर् अस्ति. धातुः दिवादिगणे अस्ति, तत्र किं रूपं सिद्ध्यति?
पूर्या भवति भगिनि.
पूर्या योगः धातुः आत्मनेपदी धातुः.
पूर्यते.
बहु सम्यक्. पूर्यते इति रूपमस्ति. अस्य धातोः कृतान्तरूपमेव पूर्णं. इदानीं भूमा भगिनी भवती आरम्भं करोतु.
सेनाः सन्नद्धाः सेनेभ्य सेनाः सेना स्त्रीलिङ्गमस्ति सेने सेनाभ्यः वा
सेना इति आकारान्तस्त्रीलिङ्गपदमस्ति चतुर्थी विभक्ति बहुवचनरूपं वक्तव्यं ताः इति आवरणे दत्तमस्ति खलु
ताः सेनाभ्यः सेनाभ्यः आयुधानि प्रयच्छत
सर्वनामपदमेव स्वीकुर्मः चेत्
सर्वनाम सर्वेभ्यः
सर्वाभ्यः प्रथमं वाक्यम् उदाहरणं वाक्यम् आदौ करोतु
सैनिकाः खिद्यन्ते तेभ्यः आश्वासनं यच्छत ताभ्यः आश्वासनं यच्छत स्त्रीलिङ्गे
उत्तमम् अस्य वाक्यस्य अर्थः कः पुनः वदतु वाक्यद्वयमस्ति खलु
सैनिकाः खिद्यन्ते सैनिकाः शोकेन वर्धन्ते ताभ्यां सान्त्वनं कुरु
सान्त्वनं ददातु उत्तमं सैनिकाः इति पदमस्ति सैनिकः एकवचनरूपमस्ति सेना इति प्रातिपदिकात् सैनिक इति रूपं सिद्ध्यति रमेश महोदय भवान् जानाति चेत् किञ्चित् वदतु सेनाप्रातिपदिकात् सैनिक इति रूपं सिद्ध्यति तद्धितान्तं पदम् इदम् अत्र तद्धितप्रत्ययः अस्ति
परन्तु सेना सैनिक तर्हि वृद्धि भवति इक् अपि आगच्छति
सैन्यम् इति पदमपि सेना इति प्रातिपदिकात् निर्मितं सेना इति प्रातिपदिकात् सैन्यम् इति पदमपि आगतं सैनिकः इति पदमपि आगतम् अस्ति यत् सेनां समवैति तत् सैन्यं यः सेनां समवैति सः सैनिकः अत्र समवैति इत्युक्ते असेम्बल् टुगेदर् आर् युनैटेड् इन् समवैति इति कथनेन तत्र अर्थः कः सेनायाम् आदौ यः न विद्यते परन्तु अनन्तरं सेनायाः अवयवः भवति सः आदौ न विद्यते सेनायां परन्तु अनन्तरं सेनायाः अवयवः भवति यः सः सैनिकः तत्र ठक् इति तद्धितप्रत्ययः अस्ति इत्युक्ते कश्चन पदार्थः सेनायाम् आदौ न विद्यते परन्तु अनन्तरम् आगत्य समूहस्य सदस्यत्वं प्राप्नोति इति तत्र अर्थः अस्ति सेना इति प्रातिपदिकात् ठक् इति तद्धितप्रत्ययस्य योजनेन सैनिक इति रूपं सिद्ध्यति एतादृशं रूपमेव अन्यत् रूपं वदामि सामूहिक सामाजिक इत्यादीनि पदानि एवं रीत्या एव निर्मितानि समाजं समवैति सः सामाजिकः समूहं समवैति सः सामूहिकः समवायं समवैति सः सामवायिकः सन्निवेशं समवैति सः सान्निवेशिकः इदानीम् अहम् इतोपि चत्वारि पदानि उक्तवती सामाजिकः सामूहिकः सामवायिकः सान्निवेशिकः इमानि पदानि तद्धितान्तपदानि अत्र तद्धितप्रत्ययः अस्ति एवं रीत्या एव अत्रापि सेना इति प्रातिपदिकात् सैनिकः इति रूपं सिद्ध्यति यः सेनां समवैति सः सैनिकः रमेश महोदय भवान् वदतु सन्नद्धाः इति कीदृशं पदम्
सन्नद्धाः तान्तपदमस्ति
अत्र धातुः कः नः
नः इति धातु वा
नः धातुतः क्ता प्रत्ययः अस्ति सम् उपसर्गः अस्ति
सम् उपसर्गः न नः धातु नः धातु षडोः कः सीन सकारः नास्ति तर्हि
अत्र एकं विशिष्टं सूत्रमस्ति तत् सूत्रं जानीमश्चेदेव कार्यं कर्तुं शक्नुमः. तत् सूत्रं केवलं नह् धातोः प्रसङ्गे एव कार्यं करोति. नहोधः नह् धातोः प्रसङ्गे एव तत् सूत्रं कार्यं करोति. नह् हकारान्तधातुः खलु, अतः तत्र हकारस्य स्थाने आदौ धकारादेशः भवति. नहोधः इति सूत्रेण तेन नह् इत्यस्य रूपं नद् भवति. नद् योगः कता इदानीं वदतु.
नद्योगः जशस्ततोर्दोधः वा,
झषस्ततोर्धोधः सूत्रेण तकारस्य स्थाने धकारः.
हा, तकारस्य स्थाने धकारः. तत् पश्चात् जलां झषि इति धकारस्य स्थाने अल्पप्राणधकारः.
एवं तद्रूपं साधनीयम्. अत्र सम् उपसर्गपूर्वक नह् धातुतः क्ता प्रत्ययः अस्ति. अत्र नहोधः इति सूत्रेण हकारस्य स्थाने धकारः, पश्चात् झषस्ततोर्धोधः इति सूत्रेण क्ता प्रत्ययस्य यः तकारः अस्ति तस्य तकारस्य स्थाने धकारादेशः भवति, पश्चात् झलां झषि इति सूत्रेण नद् इत्यत्र महाप्राणधकारः अस्ति खलु, महाप्राणधकारस्य स्थाने अल्पप्राणधकारः आगतः, तेन सन्नद्धः इति रूपं सिद्ध्यति. सन्नद्धः इत्युक्ते किम्?
टु बि रेडि, टु बि प्रिपेर्ड्, टु बि रेडि, उद्युक्ताः इति, कार्यस्य कृते उद्युक्ताः इति.
कार्यस्य कृते उद्युक्ताः अथवा युद्धस्य व्यूहरचनां कृत्वा सन्नद्धाः भवन्ति इति. व्यूहरचनां कृत्वा सन्नद्धाः भवन्ति सैनिकाः इति. दर्शना भगिनी भवती वदतु, खिद् धातुः अस्ति, खिद् धातुः दिवादिगणे अस्ति, दैन्ये इत्यस्मिन् अर्थे अस्ति. दिवादिगणे अस्ति चेत् तत्र रूपं कथं भवति?
भगिनी अहं किमपि रिविजन् न कृतवती. संस्कारस्य कृते अहम् आगत्य अहं शृणोमि, यतोहि अन्यथा तदपि न भविष्यति इति.
चिन्ता मास्तु,
अग्रे करिष्यामि, तत्तु सत्यम्.
इदानीं वदतु रमेश महोदय.
खिद् योगः खिद्यते, खिद्येते, खिद्यन्ते, तर्हि आत्मनेपदी प्रत्ययः अस्ति. खिद् योगः ते इति सिद्धप्रत्ययः स्वीकुर्मः. खिद् योगः ते तत्र सार्वधातुकप्रत्ययः अस्ति, कर्तरि अर्थे अस्ति. खिद् इति द्वादिगणीयधातुः अस्ति, तर्हि ह्यन् इति विकरणप्रत्ययः आगच्छति. ष्यन् षकारस्य लषक्वतदिते इति लोपः भवति, णकारस्य हलन्तमिति सूत्रेण लोपः भवति. य तिष्ठति, खिद्य योगः, खिद् योगः य योगः ते, खिद्यते इति रूपं सिद्ध्यति. तत्र खिद्यन्ते, तर्हि तत्र अन्ते इति सिद्धप्रत्ययः स्वीकुर्मश्चेत् खिद्यन्ते इति रूपं सिद्ध्यति.
उत्तमम्. दिवादिगणीयधातुः अस्ति इति कारणतः ष्यन् इति विकरणप्रत्ययः आयाति. ष्यन् इत्यस्मात् या अवशिष्यते, तत्र अनुबन्धलोपानन्तरं या अवशिष्यते, खिद् योगः या योगः ते, खिद्यते इति रूपं सिद्ध्यति. अत्र तेभ्यः इति रूपं दत्तमस्ति. तत्र भ्यस् इति प्रत्ययः अस्ति इति कारणतः सन्धिकार्यानन्तरं ससजुषोरुः खरवसानयोर्विसर्जनीयः इति सूत्रद्वयेन ते योगः भ्यस् इत्यत्र तेभ्यः इति रूपं सिद्ध्यति. आश्वासनम् इति दत्तमस्ति, तत् किं रूपं महोदय वदतु? ल्युडन्तमस्ति, इतोपि वक्तव्यं खलु?
आ इति उपसर्गः अस्ति, श्वस् इति, श्वास इति धातुः, श्वस् इति धातु,
तत्र श्वस् इति धातुः अस्ति, किन्तु श्वासनम् इति किमर्थम् आगतम्?
श्वासनं प्रायः निजन्त अस्ति वा,
निजन्तरूपम् अस्ति. पठनम् इति ल्युडन्तरूपम् अस्ति, पाठनम् इति कथनेन
निजन्तरूपम् अस्ति. पाठि इति धातोः,
पाठि धातोः ल्युडन्तरूपम् अस्ति, अणिजन्तरूपं पठनम् अस्ति, अणिजन्तरूपं पाठनम् अस्ति. एवमेव अत्र श्वसनम् इति रूपम् अस्ति, श्वासनम् इति कथनेन णिचपि अस्ति. आ उपसर्गपूर्वक स्वस् धातुतः णिच् प्रत्ययं योजयित्वा ल्युट् योजयामः, तेन आश्वासनम् इति रूपं सिद्ध्यति. आश्वासनम् इति कथनेन सान्त्वनम् अश्यूरेन्स् अथवा एन्करेज्मेण्ट्. सैनिकाः खिद्यन्ते अतः तेभ्यः आश्वासनं यच्छत इति कश्चित् वदति, केनचित् उक्तमस्ति. अत्र यच्छत इति रूपं दत्तमस्ति. सूर्यकुमारी भगिनी भवती वदतु, यच्छत इत्यत्र किं चिन्तनमस्ति?
तत्र यच्छ आदेश भवति,
वस्तुतः धातुः दा अस्ति. दाण् इति औपदेशिकरूपं दत्तमस्ति. दाण् दाण् इत्यत्र हलन्त्यम् इति सूत्रेण णकारस्य इति संज्ञा भूत्वा दा इति एव तत्र लौकिकधातोः रूपम् अस्ति. दाने इत्यस्मिन् अर्थे अस्ति. किन्तु वयं किं जानीमः, डुदा इति धातुः जुहोत्यादिगणे अस्ति, किन्तु अयं दान् धातुः भुवादिगणे अस्ति.
सित् अस्ति चेत् धात्वादेश भवति. पाद
बाघ्राध्मास्थाम्ना दान् दृश्यर्तिसर्ति सद सदाम् इति दीर्घं सूत्रमस्ति. वदतु.
सदां पिबा यच्च आयाति, धास्थाने यच्च आयाति, यच्चयोगः सप् यच्च भवति, यच्छत आश्वासनम् यच्छत.
अत्र चिन्तनमस्ति, दान् इति औपदेशिकधातुः, लौकिकधातुः दा अस्ति, अयं धातुः भुवादिगणे अस्ति. भुवादिगणे अस्ति इति कारणतः शप् विकरणप्रत्ययः आयाति. दास्थाने यच्छ आदेशः केवलं शितिपरे एव भवति. शप् प्रत्ययः शित् प्रत्ययः खलु, केवलं चतुर्षु लकारेषु एव, सार्वधातुकलकारेषु एव, लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु एव दास्थाने यच्छ आदेशः भवति. शितिपरे पाघ्राध्मास्थाम्ना इति एकं दीर्घं सूत्रमस्ति, तेन सूत्रेण यच्छादेशः भवति इत्यतः यच्छत इति रूपं सिद्ध्यति.
सुकागम अपि भवति.
सुकागमः नास्ति भगिनि,
न न यच्छ आदेशः भवति. क्षम्यतां भगिनि.
भुवादिगणीयधातुः इति स्मर्तव्यमस्ति. भुवादिगणे शप् विकरणप्रत्ययः अस्ति. शप् प्रत्ययः शित् प्रत्ययः खलु, अतः इदं कार्यं भवति. केवलं चतुर्षु लकारेषु एव इदं कार्यं भवति. जुहोत्यादिगणीयदा धातुः भिन्नः, अयं धातुः भिन्नः. जुहोत्यादिगणीयधातुः डुदाय् अस्ति, किन्तु अयं धातुः दाण्. अग्रिमं वाक्यं दर्शना भगिनी भवती करोतु.
सेनाः सन्नद्धाः ताभ्यः आयुधानि प्रयच्छत. सेनाः तु आकारान्तस्त्रीलिङ्गशब्दः, बहुवचने अस्ति, प्रथमाविभक्तौ.
सेनाः इति प्रथमाविभक्तौ अस्ति इति कथं ज्ञातवती? द्वितीयाविभक्ति बहुवचनमपि सेनाः.
अत्र अत्र कर्ता अस्ति, कर्मपदं न तु न कर् न कर्मपदं, परन्तु किं तत् कर्ता अस्ति.
सेना सेने सेनाः, सेनां सेने सेनाः, अस्मिन् वाक्ये कर्तृपदमेव अस्ति. वदतु.
सन्नद्धाः, तत्र विशेषणमिति स्वीकर्तुं शक्नुमः. अपि च तत्र तत्रापि आकारान्त स्त्रीलिङ्ग बहुवचने अस्ति, प्रथमाविभक्तौ. अत्र प्रयच्छत इति लोट्लकारे मध्यमपुरुष बहुवचने अस्ति, तदर्थं तत्र दानक्रिया अस्ति, तदर्थं तत्र चतुर्थी विभक्तिः प्रयुज्यते. किं प्रयच्छत इत्युक्ते आयुधानि, कानि प्रयच्छत, आयुधानि प्रयच्छत इति. तत्र आयुधानि तु कर्मपदम् अस्ति, द्वितीयाविभक्त बहुवचने.
आयुधानि इति उक्तवती. आयुधानि इत्यत्र आ उपसर्गः अस्ति, युद्धधातोः रूपम् इति वक्तुं शक्यते वा?
नैव.
आ उपसर्गः अस्ति, युद्धधातुः दिवादिगणे अस्ति. युद्धधातुः दिवादिगणे युध्यते इति रूपम् अस्ति. आयुधम् इति कथनेन अस्त्रशस्त्राणि इति वक्तुं शक्यते खलु?
आम् आम्.
आयुधानि इति कथनेन खड्गादीनि आयुधानि, चक्रादीनि आयुधानि, शरादीनि आयुधानि सन्ति. भवती श्रुतवती खलु आयुधागारम्?
न न न श्रुतवती भगिनि.
भवती श्रुतवती वा आयुधागारम्?
आयुधागारम्
हौस् आफ् वेपन्स्.
आयुधागारम् इति पदमस्ति, तत् समस्तपदं. दर्शना भगिनी विग्रहवाक्यं वदतु.
आयुधागारं षष्ठी तत्पुरुषं किम्?
उत्तमम्. आयुधानाम् आगारं षष्ठी तत्पुरुषसमासः अस्ति. आगारम् इति कथनेन गृहं, स्थलं, प्रदेशः इति अर्थः अस्ति. आयुधानाम् अग्रिमं वाक्यं करोतु.
कृष्णार्जुनौ सेनामध्यम् आगतौ. कृष्णार्जुनौ सेनामध्यं सेनां मध्यम् आगतौ. ताभ्यां ताभ्याम् अवकाशं प्रयच्छत.
कृष्णार्जुनौ इति दत्तमस्ति, तत् समस्तपदं. तत्र विग्रहवाक्यं वक्तव्यं.
कृष्णश्च अर्जुनश्च असौ.
असौ इत्यस्य आवश्यकता नास्ति. कृष्णः च अर्जुनः च द्वन्द्वसमासः. द्वन्द्वसमासस्य प्रसङ्गे प्रकारद्वयम् अस्ति, इतरेतरद्वन्द्वः, समाहारद्वन्द्वः. अत्र कृष्णः अर्जुनः इति नामद्वयं दत्तमस्ति. किमर्थं कृष्णः इति पदमेव पूर्वं वक्तव्यं? किमर्थम् अर्जुनकृष्णौ इति किमर्थं न उक्तमस्ति?
यतोहि तत्र लघु पदं यदस्ति तद् आदौ वक्तव्यमस्ति.
साधु. तत्र शास्त्रचिन्तनं किमस्ति?
शास्त्रचिन्तनं तर्हि सः ज्येष्ठः अस्ति तदर्थम्.
अत्र रमेश महोदय भवान् वदतु, किमर्थं कृष्णः इति पदमेव पूर्वं प्रयोक्तव्यम्, अर्जुनः इति पदम् अग्रे आयाति, इत्युक्ते अनन्तरम् आयाति, किमर्थं कृष्ण इति पदमेव पूर्वं स्थापनीयम्?
तत्र कृष्णस्य एकमेव यत्र अल्पाक्षरं प्रथमं भवेत् इति, अल्पाक्षरमेव तस्य नाम किम्? अल्पाक्षरं, परन्तु तद् इदानीं मनसि न आगच्छति. पूर्वं किं पदं भवेत् तत्र?
सूत्रमस्ति अल्पाचितरम्. अल्पाचितरं तरप् प्रत्ययः, तमप् प्रत्ययं वयं जानीमः. अल्पाचितरम् इति सूत्रमस्ति. अल्पाचितरम् इत्यस्मिन् सूत्रे द्वन्द्वे इति पदम् अनुवृत्तं भवति. अल्पाचितरं शब्दरूपं द्वन्द्वसमासस्य प्रसङ्गे पूर्वं प्रयोक्तव्यम्. अल्पाचितरं शब्दरूपं पूर्वं प्रयोक्तव्यम्. अतः कृष्ण इत्यत्र कति अचुवर्णाः सन्ति?
द्वयम्.
द्वयमस्ति. अर्जुन इत्यत्र कति अचुवर्णाः सन्ति?
वर्णत्रयं सन्ति तत्र.
वर्णत्रयमस्ति. कृष्णः इत्यस्मिन् पदे अल्पाः अचुवर्णाः सन्ति. अर्जुन इत्यस्मिन् बहवः अचुवर्णाः सन्ति. कृष्ण इति शब्दस्य अपेक्षया बहवः अचुवर्णाः सन्ति इति कारणतः यस्मिन् शब्दे अल्पाः अचुवर्णाः सन्ति तत् शब्दस्वरूपं द्वन्द्वसमासस्य प्रसङ्गे पूर्वं प्रयोक्तव्यम् अल्पाचितरम् इति सूत्रेण. एवमेव शिवकेशवौ, वदतु महोदय.
शिवकेशवौ, शिव इति एकाच् अस्ति.
एकाच् नास्ति. एकाच् नास्ति,
अच् द्वयम् अस्ति. शिव इति अवकारस्य अग्रिमवर्णः अकारः अस्ति. तर्हि तत्र स्वरः द्वयं, स्वरद्वयम् अस्ति. केशवौ, तत् केशव, तत्रापि तत्र स्वरत्रयम् अस्ति. तर्हि शिव इति यत् पदम् अस्ति तद् अल्पाच्तरः अस्ति, तर्हि शिव इति एव पूर्वपदं भवेत्।
बहु सम्यक्। एवमेव ग्रीष्मवसन्तौ, ग्रीष्मवसन्तौ,
ग्रीष्म ग्री ग्री इति ईकारः ग्रीष्म, तर्हि स्वरद्वयम् अस्ति तत्र, वसन्तौ स्वर वसन्त स्वरत्रयं स अस्ति अत्र, तर्हि ग्रीष्म इति अल्पाच्तरः अस्ति,
ग्रीष्म इति अल्पाच्तरः अस्ति, वसन्त इत्यस्मिन् इतोपि अधिकाः अचुवर्णाः सन्ति इति कारणतः तत् अग्रे आयास्यति, किन्तु ग्रीष्म इति पदमेव पूर्वं प्रयोक्तव्यम् अल्पाच्तरम् इति सूत्रेण, शिवः च केशवः च शिवकेशवौ इति रूपं, ग्रीष्मः च वसन्तः च ग्रीष्मवसन्तौ, एवमेव अत्रापि कृष्णः च अर्जुनः च कृष्णार्जुनौ इति भवति। इतरेतरद्वन्द्वसमासस्य प्रसङ्गे लिङ्गनिर्णयः करणीयः, वचननिर्णयः अपि भवति। अत्र परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण द्वन्द्वसमासस्य प्रसङ्गे परशब्दस्य लिङ्गमेव सम्पूर्णसमस्तपदस्य लिङ्गं भवति। अत्र अर्जुन इति पुंलिङ्गपदमस्ति इति कारणतः समस्तपदं पुंलिङ्गे एव भवति। अत्र पदार्थद्वयमस्ति इति कारणतः द्विवचने वक्तव्यम्, अतः द्विवचनरूपं पुंलिङ्गरूपं भवति। कृष्णः च अर्जुनः च इत्यत्र कृष्णार्जुनौ इति समस्तपदमस्ति। सेनायाः मध्यं, सेनामध्यम् आगतौ इति पदं दत्तमस्ति। दर्शना भगिनी वदतु तत् किम्?
तत्र गम् धातोतः निर्मितं पदं गतः, तत्र त प्रत्ययः अस्ति, आ उपसर्गः पूर्व, अत्र द्विवचने अस्ति इत्युक्ते तदर्थं कृष्ण अर्जुनौ द्विवचने अस्ति, तदर्थम् आगतौ इति अस्ति तत्र।
आगतौ द्विवचने अस्ति, किन्तु पुंलिङ्गे रूपाणि वदतु।
आगतः, आगतौ, आगतवन्तः, आगताः, आगताः,
आगताः, एवं पुंलिङ्गे रूपाणि भवन्ति, क्तान्तरूपाणि। स्त्रीलिङ्गे वदतु।
आगता, आगते, आगताः।
नपुंसकलिङ्गे?
आगतम्, आगते, आगतानि।
उत्तमम्। एवं क्तान्तरूपाणि सप्तसु विभक्तिषु त्रिषु लिङ्गेषु साधयितुं शक्नुमः। प्रातिपदिकम् अस्ति आगत, गम् धातोः क्तान्तरूपमेव, किन्तु गम् धातुः अनुनासिकान्तधातुः, तत्र विशेषसूत्रेण मकारस्य लोपः भवति, तेन गत इति रूपं सिध्यति। अत्र अवकाशः इति रूपं दत्तमस्ति, तस्य अर्थः अवसरः अथवा चान्स् अथवा आपर्च्युनिटि इति वक्तुं शक्यते। कृष्णार्जुनौ सेनामध्यम् आगतौ, तौ अवकाशं प्रयच्छत, अलौ देम् टु एण्टर् इति अर्थः अस्ति। अवकाशः इत्यत्र अव उपसर्गः अस्ति, काश् धातोः रूपम् अस्ति, काश् धातोः रूपमेव काशी, जानाति खलु?
नैव, न ज्ञातवती।
रमेश महोदय भवान् वदतु, काशी,
काशी इति कथं साधनीयं वा? काश् धातुतः ईकारः काशी, पुल्लिङ्गपदम् अस्ति वा तत्?
नदी शब्दवत्,
तर्हि स्त्रीलिङ्गः एव, तर्हि नीप् वा? प्रत्ययः कः?
गौर इति प्रातिपदिकात् नीश् प्रत्ययस्य योजनेन गौरी इति रूपं भवति। एवमेव षिद् गौरादिभ्यश्च इति सूत्रमस्ति, षिद् गौरादिभ्यश्च इति सूत्रेण नीश् प्रत्ययः विहितः भवति। तत्र नीश् प्रत्ययः गौरादिगणीयधातुभ्यः विहितः भवति, इत्युक्ते गौरादिगणः आकृतिगणः, आकृतिगणः इत्युक्ते अन्ये शब्दाः अपि तस्मिन् योजयितुं शक्नुमः, यैः पण्डितैः स्वीकृताः शब्दाः, सः गणः आकृतिगणः इति कारणतः नूतनशब्दाः अपि तस्मिन् गणे योजयितुं शक्नुमः। अत्र काश इति पदमपि तस्मिन् गणे भवितुं शक्नोति, नीश् प्रत्ययस्य योजनेन अनुबन्धलोपानन्तरम् ई एव अवशिष्यते, काश इति प्रातिपदिकम् अस्ति, नीश् योजनेन काशी इति रूपं भवति। तत्र काश् इति धातुः अस्ति, काश् धातोः रूपमेव काशते भुवादिगणे अस्ति, प्र उपसर्गपूर्वकः अस्ति चेत् प्रकाशते, काश् धातोः रूपमेव काशी। काशी शब्दस्य अन्यनाम अस्ति वाराणसी। किमर्थं वाराणसी?
तत्र वारी अस्ति, गङ्गा अस्ति, तदर्थं किम्?
काशीनगरस्य अन्यनाम अस्ति वाराणसी। वाराणसी इति अन्यनाम अस्ति काशीनगरस्य, किमर्थं चेत् वर्णा इति नद्याः नाम, असी इति अन्याः नद्याः नाम, वर्णा च असी च तयोः नद्योः अदूरे भवा इति तत्र चिन्तनमस्ति। वर्णा च असी च तयोः नद्योः अदूरे भवा इति, तत्र वर्णा इति नद्याः नाम, असी इति अपि नद्याः नाम, तत्र नदीद्वयमस्ति। वाराणसी इति पदमपि तद्धितान्तं पदमेव। वर्णा इत्यत्र ह्रस्वाकारः अस्ति खलु, वाराणसी इति एव वक्तव्यमस्ति। अवकाशं प्रयच्छत, प्रयच्छत इत्यत्र अपि प्र उपसर्गः अस्ति, दा धातुतः निर्मितं पदमेव, दा इत्यस्मिन् स्थाने यच्छ आदेशः भवति इत्यतः एतादृशं रूपम् आगतम्। तृतीयं वाक्यं दर्शना भगिनी करोतु।
सा सात्विकी बुद्धिः, ताभ्यः क्षम्यतां, तस्यै तस्यै तदवकाशं कल्पयत। सा तु स्त्रीलिङ्गे तत् शब्दस्य प्रातिपदिकं तद् इति अस्ति, सा प्रथमा विभक्तिः एकवचने। सात्विकी बुद्धिः, तत्र सात्विकी विशेषणम् विशेषणमस्ति बुद्धि इति विशेष्यस्य, बुद्धिः अपि स्त्रीलिङ्गे अस्ति, एकवचने एकवचने प्रथमा विभक्तिः। तस्यै तदवकाशं कल्पयत, कल्पयत तु ताने तथा नास्ति लिटरलि, परन्तु परन्तु भावः अस्ति, तदर्थं तदर्थं सदवकाशं क्षम्यतां, भावः अस्ति अस्ति, तदर्थं चतुर्थी विभक्तिः अत्र प्रयुज्यते। अवकाशं कृतवन्तः, तत् अवकाशं सदवकाशं, तत्र जष्ट्वं सन्धिः,
सत्योगः अवकाशः सदवकाशः खलु?
आम्,
सत्योगः अवकाशः इत्यत्र सन्धिकार्यं वदतु।
तदेव त जष्ट्वं भवति,
झलां जशोके वदतु,
तत्र तकारान्त दकारः भवति।
सूर्यकुमारी भगिनी, झलां जशोन्ते सूत्रं किं वदति?
झल्वर्णः जस् भवति, पदान्ते च पदान्ते वा जल्वर्ण जलिपरे वा, सत् सत् पदमस्ति खलु, पदान्ते अस्ति चेत् अन्धकारः भवति, न तु जलिपरे।
सदवकाशं प्रथमाविभक्तिरूपमस्ति, सदवकाशः अवकाशः इति पुंलिङ्गपदमेव, सदवकाशम् इति कर्मपदं भवति। बुद्धिः इत्यत्र किं चिन्तनमस्ति, रमेश महोदय वदतु।
जलां जशोन्ते केवलं पदान्ते जलस्य स्थाने जषादेशः भवति, तत्र परनिमित्तं जलि इति किमपि नास्ति इति मम चिन्तनम् अस्ति, केवलं पदान्ते जल् भवेत् तदेव, पदान्ते जल् अस्ति चेत् तस्य स्थाने जषादेशः भवति।
सत्यं, पदान्ते विद्यमानस्य जल् वर्णस्य जष् आदेशः भवति। बुद्धिः इत्यत्र
बुद्ध तिन् प्रत्यये अस्ति, स्त्रियां तिन् इति सूत्रेण बुद्ध इति धातुः अस्ति, तिन् इति प्रत्ययः कित् अस्ति, तर्हि गुणकार्यं न भवति, बुद्धियोगः ति सन्धिकार्यं भूत्वा बुद्धिः इति रूपं भवति.
अत्र झषस्तथोर्धोधः झलां झष् झषि सूत्रद्वयेन सन्धिकार्यं भूत्वा बुद्धिः इति रूपं भवति. बुद्ध धातुः क्तिन् प्रत्ययः, क्तिन् इत्यत्र अनुबन्धलोपानन्तरं ति अवशिष्यते, बुद्धियोगः ति इति स्थितिः अस्ति. तदा झषस्ततोर्धोधः सूत्रेण तकारस्य स्थाने धकारः आगतः, तेन बुद्धियोगः धि इति रूपं सिद्ध्यति. पश्चात् झलां झष् झषि इति सूत्रेण बुद्ध इत्यत्र यः महाप्राणधकारः अस्ति तस्य स्थाने अल्पप्राणधकारः आयाति, तेन बुद्धिः इति रूपं कल्पयत इति रूपं दत्तमस्ति. तत्र किं चिन्तनम् अस्ति? महोदय वदतु.
क्लुप् इति धातुः अस्ति,
अणिजन्तरूपम् अस्ति. कल्पते भक्तिः ज्ञानाय कल्पते, कल्पते इति अणिजन्तरूपम् अस्ति. किन्तु अत्र णिच्यपि अस्ति कल्पयत इत्यत्र. सूर्यकुमारी भगिनी, कल्पयत इत्यत्र नवरूपाणि वदतु.
लकार
लोट् लकारः,
कल्पयतु कल्पयतां कल्पयन्तु, कल्पय कल्पयतं कल्पयत, कल्पयानि कल्पयाव कल्पयाम.
अत्र धातुः कृप् अस्ति. कृप् सामर्थ्ये इति धातुः अस्ति. कृप् धातुः भुवादिगणे अस्ति. कृप् धातोः प्रसङ्गे बहु किमपि चिन्तनम् अस्ति. कृपोरोलः इति सूत्रमायाति. महोदय वदतु.
तत् सूत्रं स्मृतं, परन्तु किं वदति इति विस्मृतं महोदय.
चिन्ता मास्तु. कृप् धातुः अस्ति, भुवादिगणे अस्ति. भुवादिगणे अस्ति इति कारणतः शप् विकरणप्रत्ययः आयाति. शपं निमित्तीकृत्य कृप् इति धातौ उपधायां ह्रस्वरुकारः अस्ति खलु, अतः पुगन्तलघूपदसि च इति सूत्रेण कृप् कर्प् भवति. शप् विकरणप्रत्ययं निमित्तीकृत्य कृप् इति धातौ गुणकार्यं पुगन्तलघूपदसि च सूत्रेण भूत्वा कृप् इत्यस्य रूपं उरण्ड्रपरः कार्यमपि अस्ति, तेन कर्प् भवति. तस्यां दशायां कृपोरोलः इति सूत्रमायाति. कृप् धातोः प्रसङ्गे रेफस्य स्थाने लकारादेशः भवतु इति तेन सूत्रेण उच्यते. कृपोरोलः, कृपः रः लः, रेफस्य स्थाने लकारादेशः भवतु इति वदति. यदा कर्प् इति रूपम् आयाति तत्र कृपोरोलः सूत्रेण रेफस्य स्थाने लकारादेशः भवति चेत् कर्प् इत्यस्य रूपं कल्प् भवति. कल्पयोगः शप् इत्यस्मात् आगतः, तेन कल्प इति अङ्गं भवति. धातुः आत्मनेपदी धातुः, अतः कल्पते इति रूपं सिद्ध्यति. किन्तु अत्र णिजन्तरूपं साधनीयं. कल्पि इति णिजन्तधातुः अस्ति. कल्पि णिजन्तधातुतः कल्पयति, कल्पयतु, कल्पयत इत्यादीनि रूपाणि सिद्धप्रत्ययस्य योजनेन साधयितुं शक्नुमः. तस्यै सदवकाशं कल्पयतु. किमर्थं सदवकाशं कल्पयतु? सा सात्विकबुद्धिः. अत्र सात्विकी बुद्धिः इति दत्तमस्ति. तस्मिन् स्थाने समस्तपदं कृत्वा वदामश्चेत्? महोदय वदतु.
सात्विकी बुद्धेः समस्तपदं करणीयं वा? सात्विकबुद्धिः इति भवति.
अत्र तु व्यस्तरूपेण लिखितमस्ति खलु?
तत्र पुंवत् भावः आगच्छति, तर्हि सात्विकी सात्विकबुद्धिः इति एव भवति.
सात्विकी इति कथनेन सत्त्वगुणः अस्याम् अस्ति, सत्त्वगुणः अस्ति अस्याः, सत्त्वस्य इयं सात्विकी, सत्त्वस्य अयं सात्विकः, सत्त्वस्य इयम् इति कथनेन सात्विकी, सा सात्विकी बुद्धिः, अतः तस्यै सदवकाशं कल्पयतु. बहु उत्तमं वाक्यं खलु. अत्र समस्तपदमपि कर्तुं शक्नुमः. सात्विकबुद्धिः इत्यत्र बहुव्रीहिसमासः भवितुमर्हति. महोदय, विग्रहवाक्यं वक्तुमिच्छति वा? सात्विकबुद्धिः,
सात्विकी बुद्धिः यस्य सः यस्या सा अपि भवितुमर्हति.
उत्तमं. तत्र बहुव्रीहिसमासं कर्तुं शक्नुमः. सात्विक बुद्धिः इति समस्तपदं भवति. सात्विकी बुद्धिः यस्य सः अथवा सात्विकी बुद्धिः यस्याः सा, लिङ्गद्वये अपि वक्तुं शक्यते. अस्तु, कल्पयत इति रूपं दत्तमस्ति, णिजन्तरूपं दत्तमस्ति. तत्र अन्यानि कृदन्तरूपाणि ज्ञातुम् इच्छामः. कृत्वान्तरूपं वदतु महोदय.
कल्पितं
वाक्यं किं वक्तुं शक्नुमः? तस्यै सदवकाशः कल्पितः, खलु?
अवकाशः कल्पितः.
कल्पितवान् योजयित्वा वाक्यं वदतु.
तस्यै कल्पितवान् वा कल्पितवती इति वा न बुद्धं.
कल्पितवान् इति रूपं योजयितुम् इच्छामः.
अवकाशः कल्पितवान् इति वा.
तवतु प्रत्ययः कर्तृर्धकप्रत्ययः. नेता तस्यै सदवकाशं कल्पितवान्.
अवकाशम् इति भवेत्, द्वितीयविभक्त्यां भवेत्.
कल्पितः इत्यत्र कर्मार्थकप्रत्ययः, क्ताप्रत्ययः. नेत्रा तस्यै सदवकाशः कल्पितः इति वक्तव्यं भवति. जनेन सदवकाशः तस्यै कल्पितः, क्तान्तरूपं तथा भवति. किन्तु कल्पितवान् इति रूपं योजयित्वा वक्तुमिच्छामश्चेत् नेता तस्यै सदवकाशं कल्पितवान्, नेता कल्पितवान्. ल्युडन्तरूपमस्ति कल्पनम्. कल्पनम् इति पदं योजयित्वा वक्तुमिच्छामश्चेत्
अवकाशस्य कल्पनं कृतवान्.
बहु सम्यक्, अवकाशस्य कल्पनम् इति एव वक्तव्यमस्ति. तत्र षष्टिविभक्तेः प्रयोगः भवति. कर्तृकर्मणोः कृति इति सूत्रेण अवकाशस्य कल्पनं भवति. तस्यै अवकाशस्य कल्पनं कृतवान्. कृत्वान्तरूपं कल्पयित्वा वदतु.
अवकाशं कल्पयित्वा सः प्रोत्साहम् अपि दत्तवान्.
बहु सम्यक्, अवकाशः कल्पनीयः. तत्र किं वाक्यं वदतु.
नेत्रा अवकाशः कल्पनीयः.
तव्यत् योजयित्वा वदतु. कल्पितव्यः,
तदेव भवति खलु. कल्पितव्यः, कल्पनीयः अपि च कल्पितव्यः समानमेव.
समानमेव, उत्तमम्. नेत्रा तस्यै
अवकाशः कल्पितव्यः, कल्पितव्यः कल्पनीयः.
बहु सम्यक्, एवं योजयितुं शक्नुमः. धन्यवादाः महोदय. दर्शनभगिनी भवती करोतु अग्रिमं वाक्यम्.
एषः संसाररूपः अश्वत्थः. एतस्यै असङ्गशस्त्रम् अलम्. अलम् अस्ति किल, अल म नास्ति, अलम्. टङ्कनस्य दोषः अस्ति
न, अत्र दोषः नास्ति, अलम्.
मम नैव, तत्र मम पुस्तके अल स्पेस् म इति. तर्हि
अन्ते किमर्थं मकारः अस्ति, किमर्थम् अनुस्वारः किमर्थं नास्ति?
यतोहि तत्र मोनुस्वारः, तत्र अन्ते यदा अनुस्वारः अस्ति तदा मकारः एव स्थापनीयम्.
इत्युक्ते अत्र सन्धिकार्यं नास्ति.
सन्धिकार्यं नास्ति, सन्धिकार्यं नास्ति.
वाक्यस्य प्रसङ्गे बहु किमपि ज्ञातव्यं, वदतु.
एषः तु एतद् एतद् इति शब्दस्य प्रथमा विभक्तिः एकवचनरूपम् अस्ति. संसाररूपः समस्तपदम्. अश्वत्थः, अश्वौ तत्रापि समस्तपदम् एव. विग्रहवाक्यं तु
तत्पदं समस्तपदमस्ति वा नो चेत् अत्र किं चिन्तनम् अस्ति इति द्रष्टव्यम्.
नैषकपुरुषः अस्ति भगिनि.
रमेश महोदय, भवान् किं जानाति अश्वत्थः इत्यत्र?
अश्वत्थः इति यत् पदमस्ति वा,
तत् कीदृशं पदम्?
अश्वतः, अश्वतः यस्य अश्वतः श्वतः प्रायः यस्य श्वासनम् एव नागच्छति.
श्वः नास्ति यस्य तत्र
यस्य अन्ते अन्तं नास्ति तादृशपदं प्रायः अश्वत्थः इति तादृशवृक्षः अस्ति
वृक्षस्य नाम एव किन्तु पदस्य निष्पत्तिः कथं भवति इति अहं सम्यक् न जानामि चिन्ता मास्तु संसारः इत्यत्र दर्शनभगिनी वदतु
संसाररूपः तु उक्तमेव
संसारः इत्यत्र उपसर्गः कः धातुः कः
सम् इति उपसर्गः सृधातुः अस्ति किं भगिनि
सृधातुतः सारः
सृधातु सारः
सृधातोः घञन्तरूपमेव सारः
सुन्दरमस्ति किल तरणीयं भगिनि अश्वत्थः श्वः नास्ति इति मन्ये अहं परन्तु अश्वस्य अपि अहं किं कुत्रापि पठितवती इदानीं न स्मरामि
पदस्य निष्पत्तिः कथं भवति इति स्पष्टतया ज्ञातव्यम् अहं सम्यक् न जानामि सम्यक् सरति इति संसारः एषः संसाररूपः अश्वत्थः अग्रिमं वाक्यं
पुरुष असङ्गशस्त्रम् अलं एतस्यै असङ्गशस्त्रम् अलम्
अत्र अलं शब्दस्य प्रयोगः किमर्थं कृतः
तत्र एकमेव असङ्गशस्त्रेण एकमेव शस्त्रम् अलम् इति अन्यानि किमपि अन्यत् किमपि मास्तु असङ्गशस्त्रम् एव अलम् इति
उत्तमं भीमः दुर्योधनाय अलम्
सः एव तस्य वधं करोति इति सः एव अलम्
भीमः बकाय अलम्
भीमः बकासुरस्य कृते अलम् इति सः एव तस्य नाशं करोति
अत्र अलम् इति शब्दः पर्याप्तम् इत्यस्मिन् अर्थे प्रयुक्तः अस्ति पर्याप्त्यर्थे अलं शब्दस्य प्रयोगः क्रियते भीमः दुर्योधनाय अलम् इत्यत्र भीमः दुर्योधनस्य निग्रहणाय समर्थः भवति भीमः दुर्योधनस्य निग्रहणं कर्तुं शक्नोति इति अर्थः अस्ति अत्र पर्याप्त्यर्थे अलं शब्दस्य प्रयोगः भवति उपपदचतुर्थी विभक्तिः भवति रमेशमहोदय भवान् वदतु केन सूत्रेण अलं शब्दः अत्र आगतः
नमस्वस्ति स्वाहा अलं नमस्वस्ति स्वदा न नमस्वस्ति नमस्वस्ति स्वाहा स्वधा अलं वषट्कारश्च इति प्रायः
योगाच्च
योगा भवेत्
नमः स्वस्ति स्वाहा स्वधा अलं वषट् योगात् च इति सूत्रमस्ति नमः स्वस्ति स्वाहा स्वधा अलं वषट् योगात् च इति सूत्रमस्ति तस्मिन् सूत्रे अलम् इति शब्दः अस्ति एभिर्योगे एतैः शब्दैः योगे चतुर्थी विभक्तिः स्यात् उपपदचतुर्थी विभक्तिः भवति अनेन सूत्रेण अस्मिन् सूत्रे अलं शब्दः अस्ति अत्र कारकचतुर्थी विभक्तिः नास्ति उपपदचतुर्थी विभक्तिः अस्ति अत्र किं लिखितमस्ति एतस्मै असङ्गशस्त्रमलं कस्मै असङ्गशस्त्रमलं वदतु कस्मै
एतस्य संसाररूपस्य अश्वत्थं तरणीयं तदर्थम् असङ्गशस्त्रम् अलम् इति तदेव क्लेशः तत्र किं निर्लिप्ताः भवामः इति भावः अस्ति
संसाररूपः अश्वत्थः इत्यत्र समस्तपदं कुर्मः चेत् रमेशमहोदय वदतु
संसाररूप अश्वत्थः संसाराश्वत्थः
रूपाश्वत्थः
मध्यमपदस्य लोपः कृत्वा
संसाराश्वत्थरूप इति वक्तुं शक्नुमः किं भगिनि संसाराश्वत्थरूपः इति
तथा न भवति किमर्थं चेत् संसाररूप अश्वत्थः इति एव वक्तव्यं संसारः एव अश्वत्थः इति न भवति खलु संसाररूप अश्वत्थः अपि च अलं शब्दस्य प्रयोगः उपपदतृतीयाविभक्त्याम् अपि भवति. कथं भवति? अलं विस्तरेण, अलं क्रोधेन, अलं कोपेन, कोपेन अलं, क्रोधेन अलम्, अलम् अतिविस्तरेण, अलम् अतिविस्तरेण इति अपि भवितुं शक्नोति. इत्युक्ते अलं शब्दस्य प्रयोगः तृतीयाविभक्त्याम् अपि भवति. उपपदतृतीयाविभक्तेः प्रसङ्गे अपि अलं शब्दस्य प्रयोगं कर्तुं शक्नुमः. एतस्मै असङ्गशस्त्रम् अलम् इति उक्तमस्ति. भूमा भगिनी भवती वदतु, श्लोकस्य प्रसङ्गे भवती जानाति चेत् श्लोकं वदतु. दर्शना भगिनी भवती वदतु, पञ्चदशाध्याये अस्ति पुरुषोत्तमप्राप्तियोगः इत्यत्र अस्ति,
तत्र
नरूपमस्येह
तथोपलभ्यते नान्तो न चादेन च सम्प्रतिष्ठा अश्वत्थमेनं सुविरूढमूलम् असङ्गशस्त्रेण दृढेन चित्वा.
बहु सम्यक्. नरूपमस्येह तद्धोपलभ्यते नान्तो न चातिर्न च सम्प्रतिष्ठा अश्वत्थमेनं सुविरूढमूलम् अशङ्गशस्त्रेण दृढेन चित्वा. किं चित्वा?
मूले सुविरूढमूलं, तत्र संसारस्य रूपः तत्र अश्वत्थ वृक्षस्य एव सदृशी अस्ति, सदृशः अस्ति. तदर्थं तत् मूले मूलमेव मूलम् एव वयं छिदामः चेत् तत्र वयं तत्र मोक्षः मोक्षं प्राप्तुं शक्नुमः.
छिद् धातुः छिनत्ति, छिन्दन्ति, रुधादिगणे छिद् धातुः अस्ति. छिद् धातोः छित्वा छिन्दन्ति इति बहुवचनरूपम् अस्ति. छिनत्ति, छिन्तः, छिन्दन्ति एवं रूपाणि भवन्ति. द्वैधीकरणे इति अर्थे छिद् धातुः अस्ति. अत्र विषयः कः इत्युक्ते सुविरूढमूलम् एनम् अश्वत्थं दृढेन असङ्गशस्त्रेण छित्त्वा तत्पदं परिमार्गितव्यम् इति अर्थः अस्ति.
अग्रिमे परिमार्गितव्यं यस्मिन्
गतान् अनिवर्तन्ते,
गतान् न निवर्तन्ते भूयः, तमेव चाद्यं पुरुषं प्रपद्य.
बहु सम्यक्. अश्वत्थः कीदृशः इत्युक्ते सुविरूढमूलः, संसाररूपः अश्वत्थः सुविरूढमूलः. रमेश् महोदय भवान् वदतु, सुविरूढमूलः अश्वत्थः सुविरूढमूलः इति समस्तपदं, तत्र विग्रहवाक्यं
सुविरूढः, सुविरूढः मूलः,
मूलम् अस्ति,
मूलः सुविरूढः मूलः सुविरूढः, तत् समस्त ओ हा 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 बहुव्रीहिसमासः. सु सु इत्युक्ते सम्यक् वा? सम्यक् शोभनं न, सु शोभनं सम्यक्, सम्यक् रूढः सुरु सुविरु सम्यक् विरूढः सु सुविरूढः.
मूलम् इति नपुंसकलिङ्गपदमेव. सुविरूढं मूलं यस्य सः,
सुविरूढं मूलं यस्य सः सुविरूढमूलः.
संसाररूपः अश्वत्थः सुविरूढमूलः. अश्वत्थः इति पुंलिङ्गपदमस्ति, तस्य विशेषणमेव सुविरूढमूलः. सुविरूढमूलः वृक्षः. वृक्षः कीदृशः? सुविरूढमूलः. सुविरूढं मूलं यस्य सः पुंलिङ्गपदं भवति. बहुव्रीहिसमासस्य प्रसङ्गे लिङ्गपरिवर्तनं दृश्यते. मूलमिति नपुंसकलिङ्गपदं चेदपि सुविरूढमूलः इति समस्तपदं भवति. किमर्थं चेत् अश्वत्थः इति वृक्षः अस्ति, अतः तस्य विशेषणं भूत्वा सुविरूढमूलः अश्वत्थः. श्लोके किम् उक्तमस्ति? सुविरूढमूलम् अश्वत्थं छित्त्वा, कर्मपदं भवति इति कारणतः सुविरूढमूलम् अश्वत्थं छित्त्वा. केन आयुधेन छित्त्वा? भूमा भगिनी वदतु.
असङ्गशस्त्रेण छित्त्वा.
असङ्गः इत्यत्र कः समासः अस्ति सूर्यकुमारी भगिनी?
नै समासः अस्ति,
नै तत्पुरुषसमासः. नै तत्पुरुषसमासः. किमर्थं चेत् नै बहुव्रीहिसमासः अपि अस्ति, अतः स्पष्टतया वक्तव्यं. न सङ्गः असङ्गः. असङ्गशस्त्रम् इत्यत्र कर्मधारय समासः अस्ति. रमेश महोदय वदतु.
असङ्गः असङ्गशस्त्रं वा असङ्गं च तत् शस्त्रं च असङ्गशस्त्रं.
व्याख्याने तथा अस्ति वा इति द्रष्टव्यं. व्याख्याने किं दत्तमस्ति? असङ्गः एव शस्त्रम्.
खलु शस्त्रं तदेव सम्यक् अस्ति.
सङ्गः
मास्तु
मास्तु तत्र सङ्गः मास्तु. अपि च भगिनि क्षम्यतां क्षम्यताम् अपि च तत्र द्वितीये श्लोके तत्र अधश्च मूलानि अनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके. तत्र मूलं कर्मानुबन्धीनि अस्ति.
कर्मानुबन्धीनि मनुष्यलोके न रूपमस्य ततोपलभ्यते नान्तो न चातिर्न च सम्प्रतिष्ठा.
द्वितीये श्लोके अधश्चोर्ध्वं प्रसृतास्तस्य शाखाः गुणप्रवृद्धा विषयप्रवालाः अधश्च मूलानि अनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके. तत्र तत्र वृक्षः तु उल्टा अस्ति किल. तर्हि पुरुषोत्तम योगे वृक्षः उल्टा अस्ति, अपि च मूले तत्र कर्म अस्माकं पुण्यपापाः तदेव सन्ति.
तत्र पुरुषोत्तमप्राप्तियोगः इति उक्तमस्ति. पुरुषोत्तमप्राप्तियोगः इति किमर्थम् उक्तम्?
पुरुषोत्तमप्राप्ति, सः पुरुषोत्तमः कृष्णः अथवा ब्रह्म अस्ति, तस्य समीपे गमनीयम् इति.
पञ्चदशाध्यायः पुरुषोत्तमप्राप्तियोगः. केचन जनाः पारायणं कुर्वन्ति, नित्यपारायणं कुर्वन्ति.
एकस्मिन् काले अहं कण्ठस्थीकृतवती, इदानीं स्मृतवती. अस्तु.
असङ्गः इति दत्तमस्ति. असङ्गः एव शस्त्रम्. एवकारः अस्ति इति कारणतः अवधारणापूर्वपदकर्मधारय समासः अस्ति. सञ्ज् इति धातुः अस्ति. सञ्ज् धातोः रूपमेव सङ्गः. शक्तिः, रमेश महोदय वदतु. शक्तिः आसक्तिः इत्यत्र सञ्ज् धातोतः कः प्रत्ययः अस्ति?
क्तिन् प्रत्ययः.
क्तिन् अस्ति. आसक्तिः इत्यत्र
उपसर्गः अस्ति.
आ उपसर्गपूर्वक सञ्ज् धातुतः क्तिन् प्रत्ययस्य योजनेन आसक्तिः इति रूपं भवति. असङ्गः, न सङ्गः, असङ्गः इत्यत्र नै तत्पुरुषसमासः अस्ति. अन्ततो गत्वा अत्र विषयः कः? एतस्मै संसाररूप अश्वत्थाय असङ्गशस्त्रम् अलं पर्याप्तम् इति अर्थः अस्ति. अलम् इति पर्याप्त्यर्थे अत्र कृतः. अत्र शस्त्रम् इति दत्तमस्ति. अस्त्रं किं, शस्त्रं किं, कोऽपि वदतु.
अहं चिन्तयामि तत्र हस्तेन यत् कुर्मः तत्
अस्त्रमस्ति इति अहं चिन्तयामि.
शस्त्रम् इति कथनेन लोहादिना निर्मितम् आयुधम्. उदाहरणार्थं खड्गः शस्त्रमस्ति, चापः, धनुः इत्यादयः अस्त्राणि भवन्ति. वयं जानीमः खलु शस्त्रचिकित्सा इति कथनेन तत्र शस्त्रम् इति पदं प्रयुक्तमस्ति. शस्त्रचिकित्सा इत्यत्र लोहादिना निर्मितम् आयुधम् उपयुज्य. सुरिकुमारी भगिनी वदतु शस्त्रचिकित्सायाः प्रसङ्गे. भवती वैद्या खलु?
उपयुज्य रोगनिवारणं करोतु.
शस्त्रचिकित्सा इत्यत्र शस्त्रमिति कथने लोहादिना निर्मितं. चिकित्सा इति पदं स्त्रीलिङ्गपदमस्ति, आकारान्त स्त्रीलिङ्गपदमस्ति चिकित्सा. रमेश महोदय, चिकित्सा इत्यत्र सन् प्रत्ययः अस्ति, भवान् वदतु.
चिकित्सा धातुः अस्ति.
कित्
कित् इति धातुः अस्ति. कित्येव चकारः भवति, चिकित्सा चिकित्सा इति भवति.
सन्नन्तरूपेषु द्वित्वं भवति खलु, संयङ्गोः इति सूत्रेण द्वित्वं भवति. तत्र धातुः तु कित् धातुः अस्ति. कित् धातुः भुवादिगणे अस्ति. भुवादिगणे अयं धातुः विशिष्टधातुः इत्युक्ते प्रत्येकस्मिन् गणे केचन धातवः सामान्याः सन्ति, प्रत्येकस्मिन् गणे केचन धातवः विशिष्टधातवः सन्ति. विशिष्ट इति कथनेन तस्य धातोः प्रसङ्गे विशिष्टानि सूत्राणि अपेक्षितानि भवन्ति. भुवादिगणे अस्ति कित् धातुः, तदर्थं गुप्तिजिकिद्भ्यः सन् इति सूत्रमायाति. गुप्तिजिकिद्भ्यः सन् इति सूत्रेण तत्र सन् प्रत्ययः विहितः भवति. सन् प्रत्ययः सर्वदा इच्छार्थे एव भवति, किन्तु भुवादिगणीय कित् धातोः प्रसङ्गे विशेष अर्थे न विहितः, इच्छार्थे न विहितः, स्वार्थे एव सन् प्रत्ययः विहितः भवति इति कृत्वा चिकित्सति इति लटिरूपं सिध्यति. चिकित्सा इति कृदन्तपदमस्ति, लटिरूपमस्ति चिकित्सति. तत्र कित् इति धातुः द्वित्वम् अपि च अन्यानि अभ्यासकार्याणि सर्वाणि भूत्वा चिकित्स इति नूतनधातोः रूपं सिध्यति. तत्र लटिरूपमस्ति चिकित्सति. सः कित् धातुः रोगापनयने व्याधिप्रतीकारार्थे, व्याधेः निग्रहे, व्याधेः अपनयने अस्य धातोः प्रयोगः भवति. धातोः अर्थः रोगापनयनं व्याधिप्रतीकारार्थः अस्ति. व्याधिनिग्रहः, व्याधेः अपनयनम् इत्यस्मिन् अर्थे कित् धातुः अस्ति. कित् धातोः रूपमेव चिकित्सा. गुप्तिजिकिद्भ्यः सन् इति उक्तवती. गुप् धातोः रूपं किं भवति? जुगुप्सा इति भवति. गुप् धातोः लटिरूपमेव जुगुप्सते. लटिरूपं जुगुप्सते, किन्तु कृदन्तरूपमस्ति जुगुप्सा इति भवति. गुप् तिजिकिद्भ्यः सन् इति उक्तवती. गुप् धातोः रूपं जुगुप्सते इति भवति. तिज् धातोः रूपं
तितिक्षति,
तितिक्षते इति भवति. तितिक्षा इति कृदन्तरूपम् अस्ति. तितिक्षुः इति अपि अन्यद् रूपम् अस्ति. गुप् धातोः रूपं जुगुप्सा, तिज् धातोः रूपं तितिक्षा, कित् धातोः रूपं चिकित्सा. गुप् तिज् किद्भ्यः सन् इति सूत्रेण भुवादिगणीय एतेषु त्रिषु धातुषु रूपाणि सिद्ध्यन्ति.
भगिनि एकः प्रश्नः अस्ति, तत्र अष्टाध्याय्यां तत्र कित् इति धातुः अस्ति, तत्र संशये अपि लिखितमस्ति. नाशने तु ज्ञातुं शक्नुमः, परन्तु संशये कित् किमर्थमस्ति तत्र? अपनयने, नाशने, संशये च, संशये किमर्थं?
जुगुप्सा इत्युक्ते
भगिन्याः प्रश्नः, कित् धातोः अर्थः, सः धातुः बहुषु अर्थेषु अस्ति, किन्तु रोगापनयने, व्याधिप्रतीकारार्थे, निग्रहे, अपनयने तावत् स्वीकरोतु.
तावत् तु सत्यम् सम्यक् एव अस्ति. अत्र अष्टाध्याय्यां संशये दत्तमस्ति, तदर्थम् अहं पृष्टवती.
चिन्तनीयं, बहुषु अर्थेषु अयं धातुः कित् धातुः अस्ति. चिकित्सा इति पदं कित् धातोः सन्नन्तरूपम् अस्ति, शस्त्रचिकित्सा इत्यत्र. अग्रिमं वाक्यं सूर्यकुमारी भगिनी करोतु.
सर्वे फलम् इच्छन्ति, कः ददाति? सर्वे फलम् इच्छन्ति, सर्वे पुल्लिङ्ग अस्ति, कस्मै ददानि?
कस्मै ददानि?
कस्मै ददानि भवति.
वाक्यं बहु सरलं खलु, सर्वे फलमिच्छन्ति, किन्तु कस्मै फलं ददानि? पुंलिङ्गपदमस्ति, सर्वः, सर्वौ, सर्वे. अत्र फलम् इत्यस्य द्वितीया विभक्तिः अस्ति. इच्छन्ति वदतु. इष् धातुः
इच्छति इच्छन्तौ इच्छन्ति
इच्छतः
इच्छतः इच्छन्तौ इच्छन्ति
लटीरूपम् अस्ति खलु इच्छति इच्छतः इच्छन्ति
क्षम्यताम् इच्छति इच्छतः इच्छन्ति
अत्र इष् धातुः
इषु गमि यमां यं स्थाने इच्छायाः आदेशः भवति
इषु गमि यमां छः इति सूत्रमस्ति इषु गमि यमां छः इत्युक्ते इदं सूत्रं त्रिषु धातुषु कार्यं करोति इष् धातोः प्रसङ्गे कार्यं करोति गम् धातोः प्रसङ्गे कार्यं करोति यम् धातोः प्रसङ्गे अपि कार्यम् इषु गमि यमाम् इति षष्टिविभक्ति बहुवचनरूपम् अस्ति त्रिषु धातुषु अनेन सूत्रेण कार्यं भवति किं कार्यं वदतु
चकार इषु गमि यमाम् छः गम् इषु इच्छति अन्तिमवर्णस्य स्थाने चकारादेशः भवति
षकारस्य स्थाने छकारादेशः भवति शितिपरे भवति
आम्
शितिपरे भवति तुदादिगणे अयं धातुः अस्ति इष् धातुः तुदादिगणे अस्ति तत्र षकारस्य स्थाने छकारादेशः भवति पश्चात् सन्धिकार्याणि
तत्र तुगागमः भवति छे
च सूत्रेण छे छे च इति कथनेन छे इत्यत्र सप्तमी अन्तमस्ति छकारे परे पूर्वं स्थितस्य ह्रस्वस्वरस्य तुक् आगमः
तदनन्तरं सोपशुनाचुः इत्यनेन चकार आयाति
अग्रे छकारः अस्ति इति कारणतः छकारस्य प्रभावेण तकारस्य स्थाने चकारादेशः भवति स्तोः स्चुनाश्चुः इति सूत्रेण स्चुत्वं भूत्वा चकारादेशः भवति इत्यतः इच्छ् भवति वस्तुतः धातुः इष् तत्र इषु गमीयमां छः इति एकं सूत्रं छे च इति अन्यत् सूत्रं स्तोः स्चुनाश्चुः इति तृतीयं सूत्रम् एभिः सूत्रैः अत्र इच्छ् इति रूपं सिद्ध्यति तुदादिगणे श्याविकरणप्रत्ययः अस्ति वदतु
तदादिगणे स्ना प्रत्यय अस्ति
शा अस्ति
ओ क्षम्यतां शा अस्ति सित् अस्ति सित् नास्ति आ एव अवशिष्यते इच्छयोगः इच्छा भवति
इच्छयोगः आ इच्छा भवति इच्छति इति रूपं सिद्ध्यति इषु गमि यमां छः इति सूत्रं शितिपरे एव कार्यं करोति सार्वधातुकलकारेषु एव इदं कार्यं भवति चतुर्षु सार्वधातुकलकारेषु एव तुदादिभ्यः शः इति सूत्रेण शाविकरणप्रत्ययः आयाति इत्यतः शितिपरे एव इदं कार्यं भवति रमेश महोदय भवान् वदतु इष्यति धातुः अस्ति कर्तरि लट् रूपम् इच्छति किन्तु कर्मणि लट् रूपं किमस्ति
इष्यते
इष्यते तत्र किं कार्यमस्ति
सार्वधातुक न कर्मणि यक् इति यक् प्रत्यय आगच्छति इष्योगः यक् योगः ते इष्यते इति रूपं सिद्ध्यति
उत्तमं सार्वधातुके यक् इति सूत्रेण यक् प्रत्ययः विहितः भवति भावकर्मणोः इति सूत्रेण आत्मनेपदसंज्ञकप्रत्ययः आयाति इति कारणतः इष्यते इति रूपं सिद्ध्यति इषु धातोः प्रसङ्गे इच्छति रूपं जानीमः इष्यते इति रूपं जानीमः णिजन्तरूपम् एषयति इति रूपं भवति एषि इति नूतनधातुः कथम् आयाति इष् योगः णिच्
इष् योगः णिच् इष् इति उपधायाम् इकारः अस्ति तर्हि पुगन्तलघुपदस्य च इति सूत्रेण इकारस्य स्थाने एकारः एष् योगः ई योगः एषि
एषि नूतनधातुः अस्ति चेत् लटीरूपम् एषयति
एषयति शप् विकरणप्रत्ययः कर्तरी शप् इति सूत्रेण शप् विकरणप्रत्ययः औत्सर्गिकरूपेण आगच्छति तर्हि अकारः एव अवशिष्यते एषि योगः एष्य गुणं भूत्वा एषे भवति तत् एषे योगः अ एचयवायावः ऐ आदेशः एषयति इति रूपं सिद्ध्यति
बहु सम्यक् इष्य धातोः रूपमेव कर्तरि लट् रूपम् इच्छति कर्मणि लट् रूपम् इष्यते निजन्तलट्टिरूपम् एषयति इति भवति इष्य धातोः क्तान्तरूपम् इष्टं तत्र सन्धिकार्याणि भवन्ति तत्र अष्टुनाष्टुः सन्धिसूत्रेण इष्टम् इति रूपं सिद्ध्यति तकारस्य स्थाने मूर्धन्यटकारः आयाति इष्टं क्तान्तरूपम् इष्टवान् क्तवत् रूपम् अस्ति तत्र यस्य विभाषा इति सूत्रेण इड् निषेधः भवति किन्तु इष् धातोः प्रसङ्गे कुत्रचित् इडागमः विकल्पेन भवति तव्यत् रूपं पश्यन्तु इष् धातोः तव्यत् रूपम् एष्टव्यम् एषितव्यम् एष्टव्यम् एषितव्यम् इति रूपद्वयम् अस्ति तव्यत् रूपं तत्र किं चिन्तनम् इत्युक्ते विकल्पेन इडागमः भवति एवमेव तुमन् प्रत्यये परे अपि विकल्पेन इडागमः भवति एष्टुम् एषितुम् इति रूपद्वयम् एवमेव क्त्वा प्रत्यये परे एषित्वा इष्ट्वा इति रूपद्वयम् अस्ति इत्युक्ते तकारादि आर्धधातुकप्रत्यये परे इष् धातोः प्रसङ्गे विकल्पेन इडागमः भवति विशेषसूत्रेण तीश सह लुभ रुष ऋषः इति सूत्रमस्ति तीश इति कथनेन तत्र तीयोगः इष् इति उक्तमस्ति तत्र सन्धिकार्यं कृत्वा सवर्णदीर्घसन्धिकार्यं कृत्वा तीयोगः इष तीश भवति तीश सह लुभ रुष ऋषः अनेन सूत्रेण इष् धातोः प्रसङ्गे तकारादि आर्धधातुकप्रत्यये परे विकल्पेन इडागमः भवति अतः रूपद्वयं सिद्ध्यति एष्टव्यम् एषितव्यम् एषितुम् एष्टुम् एषित्वा इष्ट्वा इमानि रूपाणि सिद्ध्यन्ति तत्र विशेषः अस्ति इत्यतः वदन्ती अस्मि ददानि इति रूपं दत्तमस्ति ददानि इत्यत्र किं चिन्तनमस्ति सूर्यकुमारी भगिनी
आत्मने क्षम्यतां लोट्लकार उत्तमपुरुष एकवचनं दाधातु जुहोत्यादिगणे अस्ति द्वित्वं भवति ददा
लोट्लकाररूपाणि इति उक्तवती लोट्लकाररूपाणि वक्तुम् इच्छति वा सर्वाणि रूपाणि ददातु
ददातु भवति कदा ददा
एकवचनरूपाणि वदतु उत्तमपुरुषं
ददतां ददतात् ददतां ददन्तु
ददन्तु भवति वा
ददतु
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 बहुवचनरूपं तथा भवति खलु लट्लकारे अपि ददाति दत्तः ददति एवमेव अत्रापि लोट्लकारे अपि ददातु ददतु
ददतु भवति
मध्यमपुरुषे एकवचनरूपं देही भवति किमर्थं देही इति रूपं सिद्ध्यति तत्र
हि आदेश भवति पित्तपि भवति
दाधातोः लोट्लकार मध्यमपुरुषे एकवचनरूपं देहि अस्ति देहि इत्यत्र सेर्ह्यपिच्च इति सूत्रेण हि प्रत्ययस्य लुक् न भवति अदन्ताङ्गेषु एव हि प्रत्ययस्य लुक् भवति किन्तु जुहोत्यादिगणे अदन्तम् अङ्गं न सिद्ध्यति अतः देहि इति रूपमेव सिद्ध्यति किन्तु अत्र किं रूपं दत्तमस्ति उत्तमपुरुष एकवचनरूपं ददानि सर्वे फलमिच्छन्ति कस्मै फलं ददानि इति प्रश्नः खलु फलम् इत्यस्य प्रयोजनम् इति अर्थः अपि अस्ति खलु तेन किं फलम्
तेन किं फलं तेन किं किं
मम आशयः अत्र फलम् इति शब्दस्य प्रयोजनम् इति अर्थः अपि अस्ति.
तेन किं प्रयोजनम् अस्तु
अनेन कार्येण किं फलम्?
अनेन कार्येण किं प्रयोजनम्?
अग्रे सरेम. इदानीं रमेश् महोदय भवान् करोतु.
सर्वे धर्मपरायणाः सर्वस्मै सर्वेभ्यः सहकारं प्रयच्छामः. सर्वे धर्मपरायणाः धर्मस्य परायणाः वा परायणाः धर्मस्य वा
धर्मे
धर्मे सम्यक् धर्मे परायणाः
धर्मपरायणाः इति कथनेन धर्मासक्ताः धर्मे आसक्ताः धर्मासक्तचित्ताः धर्मे
धर्मान्विताः
धर्मे तेषाम् आसक्तिः अस्ति इति अर्थः खलु.
धर्मे पूजितभावत् अपि अस्ति वा?
धर्मे तेषाम् आसक्तिः अस्ति.
आसक्ति
परायणम् इति पदमस्ति. महोदय वदतु, परायणम् इति समस्तपदमस्ति, परायणम् इत्यत्र विग्रहवाक्यम्?
परायणम् पर इति उपसर्गः नास्ति वा?
नास्ति.
परायणम्
परायणम् इति कथनेन परम् अयनम्
अयनम् इन् गतो इति धातोः
परम् अयनम् इति वदामि चेत् तत्र कः समासः?
अयनं कर्मधारयः समासः,
विशेषणपूर्वपदे कर्मधारे समासः भवति. अयनं कीदृशं? परम् अयनं. परम् अयनं परायणम् इति भवति. किन्तु अत्र परायणः इति पदं दत्तमस्ति, इत्युक्ते बहुव्रीहिसमासः भवितुमर्हति. परम् अयनं यस्य सः इति भवितुमर्हति. वदतु.
परम् अयनः येषां ते परायणाः इति.
धर्मे अत्यन्त आसक्ताः धर्मासक्ताः इति भवितुं शक्नोति. अयनम् इति ल्युडन्तपदमस्ति. परम् अयनं परायणं. परायणं भिन्नं, पारायणं भिन्नं. वदतु.
पारायणम् इत्युक्ते उच्चारणं वा?
केचन जनाः धातुपारायणं कुर्वन्ति, धातुपाठस्य पारायणं कुर्वन्ति केचन जनाः. केचन जनाः विष्णुसहस्रनाम पारायणं कुर्वन्ति. तत्र पारम् इति कथनेन समाप्तिः, पारम् इत्युक्ते समाप्तिः, सीमा इति अर्थः अस्ति.
तर्हि सीमापर्यन्तं गच्छन्ति इति अर्थः वा?
समाप्तिपर्यन्तं सीमापर्यन्तं तेषाम् अयनमस्ति. गमनं खलु?
अयनमित्युक्ते इन् गतो गमनमेव.
गमनम् अपि च भगिनी तत्र मोक्षस्य भावः अपि अस्ति. न अन्यः पन्था विद्यते अयनाय अस्ति किल, तत्र अयनाय.
अयनाय इति चतुर्थी विभक्तिरूपमस्ति. आदौ ल्युडन्तरूपं साधयामश्चेत् तस्य सप्तसु विभक्तिषु रूपाणि भवन्ति खलु, अयनम्, अयने, अयनानि, एवमेव अयनाय चतुर्थी खलु?
आम् सत्यम्.
अयनाय आदौ प्रातिपदिकं निर्मामः, पश्चात् सप्तसु विभक्तिषु रूपाणि भवन्ति. शास्त्रादीनां ग्रन्थादीनाम् आद्यन्तपठनं समाप्तेः पर्यन्तं सीमापर्यन्तं पठनम् इति अस्तु. सहकारः इत्युक्ते कोऑपरेशन्. सहकरोति इति लटिरूपं योजयितुं शक्नुमः. सहकरोति इति पदम् उपयुज्य वदतु महोदय.
सहकरोति सह यात्रीजनान् सहकरोति.
सहकारं ददाति इत्यस्मिन् अर्थे सहकरोति इति. सह इत्यस्य अर्थः सम्भूय कार्यं करोति. युगपत् सम्भूय कोऑपरेशन् दत्त्वा कार्यं करोति. सहकारः पुंलिङ्गपदमेव, सहकारं ददाति, सहकारं ददातु. अत्र प्रयच्छामः इत्यत्र दाने इत्यस्मिन् अर्थे एव अस्ति खलु, दाधातोः रूपमेव खलु यच्छामः इति. यस्य यस्मिन् सहकारः अस्ति सः सहकारी, तत्र नकारान्तप्रातिपदिकं सिद्ध्यति. अन्तिमं वाक्यं भवानेव करोतु.
अहं पुस्तकप्रियः, पुस्तकं यच्छत.
भवान् पुस्तकप्रियः वा?
अस्मै वा? न न न, मह्यं पुस्तकं यच्छत. अहं पुस्तकप्रियः एव.
अग्रे
अहम् इति अस्मत् शब्दस्य प्रथमाविभक्ति एकवचनरूपम् अस्ति. पुस्तकस्य पुस्तकानां प्रियः पुस्तकप्रियः.
पुस्तकानां प्रियः इति भवति वा, नो चेत् पुस्तकानि प्रियाणि यस्य सः भवति वा?
पुस्तकेषु भवति खलु भगिनि.
षष्ठी तत्पुरुषसमासः भवति वा, नो चेत् बहुव्रीहिसमासः भवति
वा इति पृष्टः. प्रियः कः प्रियः? पुस्तकः प्रियः यस्य सः, प्रायः बहुव्रीहि एव स्वीकरणीयम् अत्र.
पुस्तकम् इति नपुंसकलिङ्गपदम्.
पुस्तकानि प्रियः यस्य सः, पुस्तकानि प्रियाणि भवति वा? पुस्तकानि प्रियाणि यस्य सः इति वा?
इति मम अवगमनं. पुस्तकानि प्रियाणि यस्य सः इति बहुव्रीहिसमासः भवति. संशयः अस्ति अथवा शङ्का अस्ति, तस्य निवारणार्थम् अन्यत् पदं वदामि. लोकः मधुरप्रियः, लोकः मधुरप्रियः, मधुरप्रियः इति समस्तपदमस्ति. मधुराणि प्रियाणि यस्य सः बहुव्रीहिसमासयुक्तं पदम् अन्यपदस्य विशेषणं भवति. लोकः मधुरप्रियः. तदर्थम् एकं श्लोकं पठितवती. हे जिह्वे कटुकस्नेहे मधुरं किं न भाषसे, मधुरं वद कल्याणी लोकोऽयं मधुरप्रियः. हे जिह्वे कटुकस्नेहे मधुरं किं न भाषसे, मधुरं वद कल्याणी लोकोऽयं मधुरप्रियः.
अयं लोकः मधुरप्रियः एव
सत्यमस्ति. अपि च ते मधु मधुरस्वरेण वदामश्चेत् कटुः वाक्य अपि मधुरं भवति तेषां कृते. कण्टेण्ट् न पश्यन्ति जनाः.
दर्शनभगिनी भवती वदतु, प्रियम् इत्यस्य बहुवचनरूपं वदतु.
प्रियाणि,
प्रियाणि,
प्रियाणि नत्वमस्ति.
प्रियाणि नत्वमस्ति तत्र. किमर्थं
प्रियाणि तत्र अट्कुप् वाङ् इति सूत्रेण, वाङ् एट्सेट्रा इति सूत्रेण,
अट्कुप् वाङ्नु व्यवायेपि इति सूत्रेण णत्वं भवति. प्रियाणि इति रूपमेव भवति. तत्र रेफोत्रवर्ति ईकारः अस्ति, यकारः अस्ति, आकारः अस्ति. एते वर्णाः अट् प्रत्याहारे सन्ति. यकारः अपि अट् प्रत्याहारे अस्ति. प्रियाणि अयं श्लोकः चाणक्यनीतिः इत्यस्मात् उद्धृतः अस्ति. हे जिह्वे कटुकस्नेहे मधुरं किं न भाषसे, मधुरं वद कल्याणी लोकोऽयं मधुरप्रियः. मधुरप्रियः इति समस्तपदमस्ति. मधुराणि प्रियाणि यस्य सः इति विग्रहवाक्यं
बहुव्रीहिः,
बहुव्रीहिः अस्ति. अस्मिन् वाक्ये इतोपि किमस्ति? रमेश महोदय वदतु.
मह्यं पुस्तकं यच्छत. तत्र किमपि नूतनं नास्ति. यच्छत इति दाण इति धातोः निर्मितं पदमस्ति, लोट्लकाररूपम्.
पुस्तकप्रियः इति पदम् उपयुज्य एकं वाक्यं वदतु.
पुस्तकप्रियाः ग्रन्थालये एव तिष्ठन्ति.
बहु सम्यक्. ग्रन्थालयः पुस्तकप्रियान् आकर्षयति. पुस्तकप्रियाः ग्रन्थालये एव तिष्ठन्ति. शाकप्रियः इति वदामि चेत् तत्र विग्रहवाक्यम्
शाकानि प्रियाणि यस्य सः शाकप्रियः.
उत्तमं, शाकप्रियः, शाकानि प्रियाणि यस्य सः. किन्तु शाकपार्थिवः इति समस्तपदमस्ति, तत्र किं चिन्तनम्?
तत्र मध्यमपदलोपसमासः अस्ति, तत् शाकप्रियपार्थिवः इति. तत्र ये शाका इत्युक्ते तत्र समयः, यत् कालः तादृशं शाकः इति तत्र स्वीकुर्मः इति अहं चिन्तयामि. तर्हि अस्मिन् शाके ये पार्थिवाः, यः पार्थिवः,
समस्तपदं तु शाकपार्थिवः, मध्यमपदलोपी कर्मधारय समासः एव अस्ति. तत्र विग्रहवाक्यं वक्तव्यं चेत् शाकप्रियः पार्थिवः.
शाकप्रियः पार्थिवः, परन्तु तस्य अर्थः कः इति एव तत्र चिन्तनम् अस्ति. तत्र कुत्रापि मया पठितं, तत्र शाकप्रिय इत्युक्ते यः तस्य शाकानि, यत् वेजिटेबल्स् अस्ति, सः तादृशं नास्ति इति. शाक इत्युक्ते कालः, इत्युक्ते शाकप्रियपार्थिवः इत्युक्ते वन्स् इन् अ सेञ्चुरि किङ्ग् तादृशम्. एकवारं दृष्ट्वा अहं वदामि.
अल्पप्राणव महाप्राणव का का वर्णः?
अल्पप्राण,
अल्पप्राण मीन्स् वेजिटेबल्. का महाप्राण मीन्स् महोदय वदति.
एवं वा, शाकम् इति वेजिटेबल् इति अर्थे अस्ति, शाखा
ब्राञ्च्
ब्राञ्च् इत्यस्मिन् अर्थे शाखा अस्ति, आकारान्तस्त्रीलिङ्गपदम्.
वेद वेदस्य शाखानि बहूनि सन्ति,
वेदशाखाः सन्ति,
वेदशाखाः.
बहु सम्यक् महोदय, कक्षायाः अनन्तरं प्रेषयतु. प्रियाणि इति पदस्य प्रसङ्गे श्लोकार्थं केवलं वदामि. श्लोकार्थं वदन्ती अस्मि. अन्धः कः? यः अकार्यरतः सः एव अन्धः. बधिरः कः? यः हितानि न शृणोति सः बधिरः. मूकः कः इति प्रश्ने सति, यः काले प्रियाणि वक्तुं न जानाति सः मूकः. यः काले प्रियाणि वक्तुं न जानाति सः मूकः इति श्लोकार्थः. कोऽन्धः यो कार्यरतः, को बधिरः यो हितानि न शृणोति, को मूकः यः काले प्रियाणि वक्तुं न जानाति इति श्लोकः अपि अस्ति. कार्यकाले प्रियाणि वक्तुं यः न जानाति सः मूकः. अस्माकं पुस्तकात् किञ्चिदेव समापितवन्तः. समयाभावात् अत्र स्थगयामः. सर्वेषां धन्यवादाः.